इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नवनीत मिश्रः। आदौ मुख्य वार्ताः। विदेश मन्त्रालयेन अद्य उक्तं यत् भारत अमेरिका देशयोः मध्ये सहभागिता बहुपक्षीया विशिष्टा च अस्ति। केन्द्रीय गृहमन्त्री अमित शाह अद्य घोषितवान् यत् आतंकवादस्य आतंकवादिनः च पारिस्थितिकी तन्त्रस्य विरुद्धं सर्वकारः शीघ्रमेव राष्ट्रिय आतंकवाद विरोधि नीतिं रणनीतिं च आनयिष्यति। सर्वोच्च न्यायालयेन अद्य निर्णयः कृतः यत् सर्वकारीय कार्येषु नियुक्ति नियमाः तावत्पर्यन्तं न परिवर्तितुं शक्यते यावत्पर्यन्तं निर्धारितं न भवति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य छठ पूजायाः तृतीये दिने छठ सन्ध्यायाः अर्घ्यम् अभिलक्ष्य राष्ट्रवासिभ्यः शुभकामनाः प्रदत्ताः। यात्रिणां सुविधायै भारतीय रेलवे श्वः आरभ्य चतुःषष्ट्यधिक एकशतानि विशिष्ट रेलयानानि चालयिष्यति। अपि च बैडमिंटन क्रीडायां भारतस्य किरण जॉर्जः इत्येषः इक्सान नगरे आयोक्ष्यमाणे कोरिया मास्टर्स प्रतियोगितायाः प्राक्पान्त्यचक्रीय द्वन्द्वे प्रविष्टवान्। अथ वार्ताः विस्तरेण। विदेश मन्त्रालयेन अद्य उक्तं यत् भारत अमेरिका देशयोः मध्ये सहभागिता बहुपक्षीया विशिष्टा च अस्ति। अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी निर्वाचित राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह वार्तां कृतवान्। अपि च तस्मै उक्तवान् यत् भारतं भारत अमेरिका व्यापक वैश्विकं सामरिकं च सहभागिताम् इतोप्यधिकं सुदृढं कर्तुम् उत्सुकः अस्ति। श्री जायसवालः अवदत् यत् भारतं अमेरिका च जनानां हिताय शान्ति सुरक्षां च सुनिश्चित्य कार्यं करिष्यति। कनाडा देशस्य टोरंट नगरे केषाञ्चन निर्धारित वाणिज्य दूतावास शिबिराणां पिधान प्रकरणे श्री जायसवालः अवदत् यत् एतानि शिबिराणि कनाडा सर्वकारेण पर्याप्तं सुरक्षा संरक्षाम् आश्वासनं वा न प्राप्तम्, अतएव एतेषां शिबिराणां पिधानं जातम्। सर्वोच्च न्यायालयेन अद्य निर्णयः कृतः यत् सर्वकारीय कार्येषु नियुक्ति नियमाः तावत्पर्यन्तं न परिवर्तितुं शक्यते यावत्पर्यन्तं निर्धारितं न भवति। मुख्य न्यायाधीशः डीवाई चन्द्रचूडस्य नेतृत्वे पञ्च न्यायाधीश पीठस्य मतानुसारी एकता नियुक्ति प्रक्रियायाः आदौ पूर्वं निर्धारिताः क्रीडायाः नियमाः मध्ये परिवर्तितुं न शक्यते। न्यायालयेन उक्तं यत् चयन नियमाः संविधानस्य चतुर्दश अनुच्छेदस्य अनुरूपाः एव भवेयुः। केन्द्रीय गृहमन्त्री अमित शाहः अद्य घोषितवान् यत् आतंकवादस्य आतंकवादिनः च पारिस्थितिकी तन्त्रस्य विरुद्धं सर्वकारः शीघ्रमेव राष्ट्रिय आतंकवाद विरोधि नीतिं रणनीतिं च आनयिष्यति। नवदिल्ल्यां NIA इति राष्ट्रियान्वेषण संस्थायाः आयोजितस्य द्विदिवसीय आतंकवादरोधि सम्मेलनस्य उद्घाटनं कुर्वन् श्री शाहः अवदत् यत् विगतेषु दशवर्षेषु प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यभारग्रहणानन्तरम् आतंकवादविरुद्धं सशक्तं दृष्टिकोणं सर्वकारेण स्वीकृतम्। श्रीशाहः अवदत् यत् विगतेषु दशवर्षेषु आतंकवादविरुद्धं कार्याचरणाय देशे एकः सशक्तः पारिस्थितिकीतन्त्रः विकसितः अस्ति। सः अवदत् यत् 2500 वर्षतः 2300 वर्षाणां कालखण्डस्य अपेक्षया 2400 वर्षपर्यन्तम् आतंकवादीनां घटनासु 70% न्यूनता गता।
10 साल के अंदर मोदी जी के देश के प्रधानमंत्री बनने के बाद आतंकवाद के खिलाफ एक ठोस रणनीति लेकर भारत सरकार चली है। मोदी जी का एक घोष वाक्य जीरो टॉलरेंस अगेंस्ट टेररिज्म, ये न केवल भारत समग्र विश्व ने आज स्वीकार किया है और ये 10 साल के अंदर भारत के अंदर टेररिज्म के खिलाफ लड़ने की एक मजबूत इकोसिस्टम खड़ी हुई। हालांकि बहुत कुछ करना बाकी है परंतु 10 साल के काम का विहंगावलोकन करें तो संतोषजनक चित्र इस 10 साल में हमारे सामने खड़ा हुआ है।
केन्द्रीय गृहमंत्री अवदत् आतंकवादीनाम् आक्रमणानि तेषां षड्यन्त्रं च सीमारहित रूपेण अदृश्य रूपेण च देशस्य विरुद्धं कार्याणि सम्पादयति। सः यूनाम् अधिकारिणां कृते विशेष प्रशिक्षणस्य आवश्यकतायाः उपरि बलं दत्तवान्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेन्द्र मोदी प्रोक्तवान् यत् वन रैंक वन पेंशन इति योजनायाः परिपालनस्य निर्णयः राष्ट्रनायकान् प्रति राष्ट्रस्य कृतज्ञतां ज्ञापयितुम् एकं महत्वपूर्णं पदं वर्तते। अद्य योजनायाः दशम सम्पूर्त्यवसरे एकस्मिन् सामाजिक संचार माध्यमे प्रधानमंत्री प्रोक्तवान् यत् पदक्षेपोऽयं तेषां भूतपूर्व कार्मिकाणां कृते श्रद्धांजलि अस्ति ये राष्ट्ररक्षार्थं स्वप्राणान् अपि त्यक्तुं शंकां नैव कुर्वन्ति। प्रधानमंत्री कथितवान् यत् पदक्रमोऽयं सैन्यबलानि प्रति केन्द्रीय प्रशासनस्य प्रतिबद्धतायाः प्रतिनिधित्वं विदधाति। राष्ट्रपतिः द्रौपदी मुर्मुः इत्यनया सूर्यषष्ठी छठ इति पर्वणः अवसरे जनेभ्यः शुभकामाः प्रदत्ताः। राष्ट्रपतिना प्रोक्तं यत् इदं पर्व न केवलं प्रकृति प्रदत्तानां पदार्थानां यथा नदी सरोवराभ्यां कृते समादरं जनयति अपि तु उपवास माध्यमेन आत्मानं मनश्च पुनाति। स प्रोक्तवती यत् अयं महोत्सवः जनान् पर्यावरणस्य रक्षार्थं प्रेरयति। राष्ट्रपतिना इयं कामना प्रकटिता यत् उत्सवोऽयं जनानां जीवनेषु सौख्यम् आनेष्यति। उपराष्ट्रपतिना जगदीप धनखड़ इत्यनेनापि छठ इत्यस्य पूजायाः अवसरे राष्ट्रवासिभ्यः वर्धापनानि प्रदत्तानि। सामाजिक संचार माध्यमस्य एकस्मिन् पटले उपराष्ट्रपतिः प्रोक्तवान् यत् षष्ठी मातुः आशीर्वचांसि राष्ट्रं प्रकृति समृद्धयोः च मार्गे अग्रे सरिष्यन्ति। सः कथितवान् यत् भगवतः सूर्यस्य उपासनायाः उत्सवोऽयं शाश्वत परम्पराणां प्रकृत्या सह अस्माकं दृढ़सम्बन्धस्य च प्रतीकं वर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि अद्य छठ पूजायाः तृतीये दिने राष्ट्रवासिभ्यः शुभकामनाः प्रदत्ताः। सामाजिक संचार माध्यमस्य एकस्मिन् पटले सः प्रोक्तवान् यत् छठ सन्ध्यायाः अर्घ्यं सरलता संयम निश्चय समर्पणानाञ्च प्रतीकम् अस्ति। तेन एषा शुभकामना प्रकटिता यत् महोत्सवोऽयं जनानां जीवनेषु सुख समृद्धि सौभाग्यानि च प्रयच्छन्तु। यात्रिणां सुविधायै भारतीय रेलवे श्वः आरभ्य चतुःषष्ट्यधिकैकशतानि विशिष्ट रेलयानानि चालयिष्यति। एते यात्रिणः उत्सवे भागं भजित्वा पुनः गन्तव्यस्थानं प्रत्यागमिष्यन्ति। भारतीय रेलवे विभागस्यानुसारं विगत षट्त्रिंशत् दिनेषु प्रायः 4,500 यावत् रेलयानेषु 65,00,000 यावत् यात्रिणां परिवहनं जातम्। रेलवे विभागेन अस्य मासस्य चतुर्थे दिनांके एकस्मिन्नेव दिने कोटित्रयाधिक यात्रिणां परिवहनस्य कीर्तिमत् विरचितम्। पर्यावरण वन जलवायु परिवर्तन मन्त्रालयेन धान्यापशिष्ट दाहे दण्डराशिः द्विगुणीकृतः। प्रशासनेन ह्यः राष्ट्रिय राजधानी क्षेत्रे तत्समीपवर्ति क्षेत्रेषु च वायु गुणवत्ता प्रबन्धन आयोगस्य संशोधित नवीन नियमाः अधिसूचिताः सन्ति। नवीन नियमानुसारेण 2 एकड़ परिमितात् अल्पक्षेत्रस्य भूस्वामी कृषकाः धान्यापशिष्टस्य दाह प्रकरणे 5,000 रूप्यकाणां दण्डशुल्कः दास्यन्ति यत् पूर्वं 2,500 रूप्यकम् आसीत्। एतदधिकं 5 एकड़ परिमितस्य क्षेत्रस्य भूस्वामिनः कृषकाः पर्यावरणस्य क्षतिपूर्तये 10,000 रूप्यकाणि दास्यन्ति। तत्रैव 5 एकड़ परिमितादप्यधिक क्षेत्रस्य स्वामिनः कृषकाः 30,000 रूप्यकाणां क्षतिपूर्ति शुल्कः प्रदास्यन्ति। अन्ते च क्रीडावार्ताः। बैडमिंटन क्रीडायां भारतस्य किरण जॉर्ज इत्येषः इक्सॉन नगरे आयोक्ष्यमाणे कोरिया मास्टर्स प्रतियोगितायाः प्रागुपान्त्य चक्रीय द्वन्द्वे प्रविष्टवान् इति वार्ताः।